सुरगणा निहते कि वीर्य तस्मिन् दुरात्मनि सुरारि बले च देव्या तां तुष्टुवुः प्रणति नम्र शिरोधरांसा वाग्भिः प्रहर्ष पुलकोद्गम चारु देहा देव्यायया ततमिदं जगदात्मशक्त्या निःशेष देव गणशक्ति समूहमूर्त्या तामम्बिकामखिल देव महर्षि पूजम् भक्त्या नता स्म विदधातु शुभानि सानः यस्या प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च नहि वक्तुमलं बलं च सा चण्डिकाखिल जगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु याशी स्वयं सुकृतिनां भवनेश्वलक्ष्मी पापात्मनां कृतधियां हृदयेषु बुद्धि श्रद्धा सतां कुलजन प्रभवस्य लज्जा तां त्वां नता स्म परिपालय देवि विश्वम् किं वर्णयाम तव रूपमचिन्त्यमेतत् किं चातिवीर्यमसुरक्षयकारि भूरि किं चाहवेषु चरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु हे तु समस्त जगतां त्रिगुणापि दोषै न ज्ञायसे हरिहरादिभिरप्यपारा सर्वाशयाखिलमिदं जगदंशभूतम् अव्याकृता हि परमा प्रकृतिस्त्वमाद्या यस्या समस्त सुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवी साहासि वै पितृगणस्य च तृप्तिहेतु उच्चार्यसे त्वमत एव जनै स्वधा च या मुक्तिहेतुरविचिन्त्य महाव्रता त्वम् अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारै मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै विद्यासि सा भगवती परमा हि देवी शब्दात्मिकासु विमलर्यजुषां निधानम् उद्गीतरम्यपदपाठवतां च साम्नाम् देवी त्रयी भगवती भवभावनाय वार्ता च सर्वजगतां परमार्तिहन्ति मेधासि देवि विदिताखिलशास्त्रसार दुर्गासि दुर्गभवसागरनौरसङ्गा श्रीकैटभारि हृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ईषत्सहासममलं परिपूर्णचन्द्र बिम्बानुकारि कनकोत्तमकान्तिकान्तम् अत्यद्भुतं प्रहृतमातरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालम् उद्यत् शशाङ्क सदृशच्च वियन्न सत्य प्राणान्मुमोच महिष तत् अतीव चेत्रं वैर्जीव्यते हि कुपितान्तकदर्शनेन देवी प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि विज्ञातमेतदधुनैव यदस्तमेतत् नीतं बलं सुविपुलं महिषासुरस्य ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्ग धन्यास्त एव निवृतात्मज भूत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना धर्म्याणि देवि सकलानि सदैव कर्म नित्यादृता प्रतिदिनं सुकृती करोति स्वर्गं प्रयाति च ततो भवति प्रसादात् लोकत्रयेऽपि फलदाननु देवितेन दुर्गे स्मृता हरसि भीतिमशेषजन्तो स्वस्थै स्मृता मतिमतीव शुभां ददासि दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदा गचित्ता एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् सङ्ग्राम मृत्युमधिगम्य दिवं प्रयातु मत्वेति नूनमहितान् विनिहंसि देवि द्रष्ट्वैव किं न भवति प्रकरोति भस्म सर्वासुरानरिषु यत् प्रहिणोषि शस्त्रम् लोकान् प्रयान्तु रिपवोऽपिः शस्त्रपूता इत्थं मतिर्भवति तेष्व हि तेषु साध्वी खड्गप्रभानि कर विस्फुरणैस्तथोऽग्रे शूलाग्रकान्ति निवहेन दृशोऽसुराणाम् यन्नागता विलयमंशुमदिन्दुखण्ड योग्याननं तव विलोकयतां तदेतत् दुर्वृत्तवृत्तशमनं तव देवि शीलम् रूपं तथैतदविचिन्त्यमतुल्यमन्यै प्रियं च हन्तृहृतदेव पराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् केनोपमा भवतु तेस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि त्रैलोक्यमेतदखिलं रिपुनाशनेन प्रातं त्वया समरमूर्धनि तेऽपि हत्वा नीता दिवं रिपुगणाभयमाप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते
शूलेन पाहिनो देवी पाहि खड्गेन चाम्बिके घण्टास्वनेन न पाहि चापज्ञानिस्वनेन च प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्यां तथेश्वरी
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चात्यर्थघोराणि तैरक्षास्मांस्तथा भुवं खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वत
ऋषि उवाच एवं स्तुता सुरै दीर्वे कुसुमैः नन्दनोद्भवे अर्चिता जगतां धात्री तथा गन्धानुलेपनै
भक्त्या समस्तैस्त्रिदशैः दिव्यैर्धूपै सुधूपिता प्राह प्रसाद सुमुखी समस्तान् प्रणतान् सुरान् देवी उवाच
प्रियतां त्रिदशा सर्वे यदस्मत्तो विवाञ्छितं देवाचुः
भगवत्या कृतं सर्वं न किञ्चित् अवशिष्यते यदयं निहतशत्रु अस्माकं महिषासुरः यदि चापि वरो देय त्वयास्माकं महेश्वरी
संस्कृता संस्कृता त्वं नो हिंसेथा परमापदः यस्य मर्त्यस्तवैरेभिः त्वां स्तोष्यत्यमलानने
तस्य वित्तर्दिविभवैः धनदारादिसम्पदां हृदये स्मत् प्रसन्ना त्वं भवेथा सर्वदाम्बिके।
ऋषि उवाच इति प्रसादिता देवै जगतोऽर्थे तथात्मनः। तथेत्युक्त्वा भद्रकाली बभूवान्तर्हितानुपः।
इत्येतत् कथितं भूप सम्भूता सा यथा पुरा देवी देव शरीरेभ्यो जगत्त्रय हितैषिणी। पुनश्च गौरी देहात् सा समुद्भूता यथा भवत् वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयो।
रक्षणाय च लोकानां देवानामुपकारिणी। तच्छृणुष्व मया ख्यातं यथावत् कथयामि ते। रिम्।